अथ तृतीयः पादः उणादयो बहुलं भूतेऽपि दृश्यन्ते भविष्यति गम्यादयः यावत्पुरा निपातयोर्लट् विभाषा कदाकर्ह्योः किं वृत्ते लिप्सायां लिप्स्यमानसिद्धौ च लोडर्थलक्षणे च लिङ्चोर्ध्वमुहूर्तिके तुमुन्वुलौ क्रियायां क्रियार्थायां भाववचनाश्च अण्कर्मणि च लृट्शेषे च लृटः सद्वा अनद्यतने लुट् पदरुजविषस्पृशो घञ् सृस्थिरे भावे अकर्तरि च कारके संज्ञायाम् परिमाणाख्यायां सर्वेभ्यः इङश्च उपसर्गेरुवः समियुद्रुदुवः श्रिणीभुवोऽनुपसर्गे वौक्षुश्रुवः अवोदोर्नियः प्रेद्रुस्तुश्रुवः निरभ्योः पूल्वोः उन्योर्गः कृधान्ये यज्ञे समिस्तुवः प्रेस्त्रो यज्ञे प्रथने वावशब्दे छन्दो नाम्नि च उदिग्रहः समिमुष्टौ परिण्योर्नीणोर्द्यूताभ्रेषयोः परावनुपात्यय इणः व्युपयोश्येतेः पर्याये हस्तादाने चेरस्तेये निवासचितिशरीरोपसमाधानेष्वादेश्चकः सङ्घे चानौत्तराधर्ये कर्मव्यतिहारेण स्त्रियाम् अभिविधौ भाव इनुन् आक्रोशे वन्योर्ग्रहः प्रेलिप्सायाम् परौ यज्ञे नौ वृधान्ये उदिश्रयति यौतिपूद्रुवः विभाषाङिरुप्लुवोः अवेग्रहो वर्षप्रतिबन्धे प्रेवणिजां रश्मौ च वृणोतेराच्छादने परौ भुवो वज्ञाने एरच रुदोरप् ग्रहवृद्रनिश्चिगमश्च उपसर्गेदः नौण च व्यधजपोरनुपसर्गे स्वनः सोर्वा यमः समुपनिविषु च नौ गदनदपठस्वनः क्वणो वीणायाञ्च नित्यं पणः परिमाणे मदोनुपसर्गे प्रमदसम्मदौ हर्षे समुदो रजः पशुषु अक्षेषु ग्लहः प्रजने सर्तेः ह्वः सम्प्रसारणञ्चन्यभ्युपविशो आङि युद्धे निपानमाहावः भावेनुपसर्गस्य हनश्च वधः मूर्तौ घनः अन्तर्घनो देशे अगारैकदेशे प्रघणः प्रघाणश्च उद्घनोऽत्याधानम् अपघनोऽङ्गम् करणेयो विद्रुषु स्तम्बेक च परौघः उपघ्न आश्रये सङ्घोद्घौ गणप्रशंसयोः निघो निमितम् द्वितः त्रिः त्वितोऽथु च यजयाच यतविच्छप्रच्छरक्षोनन् स्वपोनन् उपसर्गे घोः किः कर्मण्यधिकरणे च स्त्रियां क्तिन् स्थागापापचो भावे मन्त्रे वृषेशपचमनविदभूवीरा उदात्तः ऊतियूतिजूतिसातिहेति कीर्तयश्च व्रजयजोर्भावे क्यप संज्ञायां समजनिषदनिपतमनविदशुंशीङ्भृणः संक्रयाश्च च इच्छा अप्रत्ययात् गुरोश्च हलः षिद्भिदादिभ्योऽङ् चिन्तिपूजिकथिकुम्भिचर्चश्च आतश्चोपसर्गे न्यासश्रन्थो युच रोगाख्यायान्वल्बहुलम् संज्ञायाम् विभाषाख्यानपरिप्रश्नयोरिञ्च परियायार्हणोत्पत्तिषुण्वच आक्रोशेनैयनिः कृत्यल्युटो बहुलम् नपुंसके भावेक्तः ल्युट्च कर्मणि च येन संस्पर्शात् कर्तुः शरीरसुखम् करणाधिकरणयोश्च पुंसि संज्ञायाम् घः प्रायेण गोचरसञ्चरवहव्रजव्यजापणनिगमाश्च अवेतृस्त्रोर्घ्नै हलश्च अध्यायन्यायोद्यावसंहाराधारावायाश्च उदङ्कोऽनुदके जालमानायः खनोघच ईषद्दुःसुचुकृच्छ्रा कृच्छार्थेषु खल् कर्तृकर्मणोश्च भूकृणोः आतोयुच छन्दसि गत्यर्थेभ्यः अन्येभ्योऽपि दृश्यते वर्तमानसामीप्ये वर्तमानवद्वा आशंसायाम् भूतवच्च क्षिप्रवचने लृट् आशंसावचने लिङ् नानद्यतनवत्क्रियाप्रबन्धसामीप्ययोः भविष्यति मर्यादावचने वरस्मिन् कालविभागे चानहोरात्राणाम् परस्मिन् विभाषा लिङ्निमित्ते लृङ्क्रियातिपत्तौ भूते च वोताप्योः गर्हायाम् लडपि जात्वोः विभाषा कथमिलिङ् च किं वृत्ते लिङ् लृटौ अनवक्लृप्त्यमर्षयोरकिं वृत्तेऽपि किं किलास्त्यर्थेषु लृट् जातु यदोर्लिङ् यच्च यत्रयोः गर्हायाञ्च चित्रीकरणे च शेषे लृडयदौ उताप्योः समर्थयोर्लिङ् कामप्रवेदने कच्चिते सम्भावने लमिति चेत्सिद्धाप्रयोगे विभाषाधातौ सम्भावनवचने यदि हेतुहेतुमतोर्लिङ् इच्छार्थेषु लिङ् लोटौ समानकर्तृकेषु तुमुन् लिङ् च इच्छार्थेभ्यो विभाषावर्तमाने विधिनिमन्त्रणामन्त्रणाधीष्टसम्प्रश्नप्रार्थनेषु लिङ् लोट्च प्रैषातिसर्गप्राप्तकालेषु कृत्याश्च लिङ्चोर्ध्वमुहूर्तिके स्मेलोट् अधीष्टे च कालसमयवेलासु तुमुन् लिङ् यदि अर्हे कृत्यतृचश्च आवश्यकाधमर्ण्ययोर्निनिः कृत्याश्च शकिलिङ् च आशिषिलिङ् लोटौ क्तिच्क्तौ च संज्ञायाम् माङिलुङ् स्मोत्तरे लङ् च उणादय इङो निवासव्यधजपोरपघन इच्छा हलश्च वोताप्योर्विधिः षोडश इति तृतीयः पादः